Sairam Day listeners, and welcome back to the studios of Radio Sai Prashantiralyam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to go to the evening session of this Thursday live. And to start with, we have for you Team Radio Sai's Ganesh inviting you all to yet another new episode of Radio Sai Vedam Tutor. And along with me is our dear Praveena sir to start off the proceedings of learning the Arunam. Sairam Praveena sir, and over to you.
Om Sri Sairam, we will start the session with Ganapati Prarthana Mantra chanting together.
गणपति गुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वती वाजेभिर्वाजिनीवते दीनामवित्र्यवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुं सस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः.
Sairam, before we proceed with the chanting of the Aruna Prasnam, let us revise just the last paragraph that we had learnt last time. So that is the 96th Anuvaka, the paragraph we'll chant together. Then we'll switch on to the next 97th paragraph. So now we'll chant the Samhita part of the 96th paragraph.
अथारुणः केतुरुपरिष्टादुपदधात् एवा हि देवा इति ततो देवमनुष्या पितरः गन्धर्वाप्सरसश्चोदतिष्ठन् सोऽर्ध्वादिक् याभिपुरुषो व्यपरापतन् ताभ्योऽसुरा रक्षागुंसि पिशाचाश्चोदतिष्ठन् तस्मात्ते पराभवन् विपृद्भ्यो हि ते समभवन् तदेशाभ्यनोक्ता.
प्लीज रिपीट आफ्टर मी ट्वाइस. आपोह
आपोह आपोह
यद्बृहतेर्गर्भमायन्
यद्बृहतेर्गर्भमायन् यद्बृहतेर्गर्भमायन्
आपोह यद्बृहतेर्गर्भमायन्
आपोह यद्बृहतेर्गर्भमायन् आपोह यद्बृहतेर्गर्भमायन् दक्षन्दधाना
जनयन्ते स्वयम्भुम्
जनयन्ते स्वयम्भुम् जनयन्ते स्वयम्भुम्
दक्षन्दधाना जनयन्ति स्वयम्भुम्
दक्षन्दधाना जनयन्ते स्वयम्भुम् दक्षन्दधाना जनयन्ते स्वयम्भुम्
दक्षन्दधाना जनयन्ति स्वयम्भुम्
दक्षन्दधाना जनयन्ते स्वयम्भुम् दक्षन्दधाना जनयन्ते स्वयम्भुम्
तत इमे
ज्यसृजन्तसर्गाः तत इमेद्यसृजन्तसर्गाः
अद्भ्योवा
इदगुं समभूत् अद्भ्योवा इदगुं समभूत्
तस्मादिदगुम्
स्वयं विते तस्मादिदगुम् सर्वगुम् शिथिलमिवाध्रुवमिवाभवत् तस्मादिदगुं सर्वगुं शिथिलमिवाध्रुवमिवाभवत् प्रजापतिर्वावतत्
आत्मनात्मानं विधाय
तदेवानुप्राविशत्
तदेशाभ्यनोक्ता. So this paragraph we'll chant together the Samhita part of it.
आपोहयद्बृहतेर्गर्भमायन्न दक्षन्दधाना जनयन्ते स्वयम्भुम् तत इमेद्य सृज्यन्तसर्गाः अद्भ्योवा इदगुम् समभूत् तस्मादिदगुं सर्वं ब्रह्मस्वयं विते शिथिलमिवाध्रुवमिवाभवत् प्रजापतिर्वावतत् आत्मनात्मानं विधाय तदेवानुप्राविशत् तदेशाभ्यनोक्ता.
विधाय लोकान्
विधाय लोकान् vidhaya lokana
vidhaya bhutani
vidhaya bhutani vidhaya bhutani
vidhaya lokan vidhaya bhutani
vidhaya lokan vidhaya bhutani vidhaya lokan vidhaya bhutani
vidhaya sarva aha
vidhaya sarva aha vidhaya sarva aha
pradisho dishascha
pradisho dishascha pradisho dishascha
vidhaya sarva pradisho dishascha
vidhaya sarva pradisho dishascha vidhaya sarva pradisho dishascha
prajapatihi
prajapatihi prajapatihi prathamajarutasya prathamajarutasya
prajapatih prathamajarutasya
prajapatih prathamajarutasya prajapatih prathamajarutasya
atmanatmanamabhisamviveshete
atmanatmanamabhisamviveshete atmanatmanamabhisamviveshete
atmanatmanamabhisamviveshete
atmanatmanamabhisamviveshete atmanatmanamabhisamviveshete
sarvamevedamaptva
sarvamevedamaptva sarvamevedamaptva
sarvamevedamaptva
sarvamevedamaptva sarvamevedamaptva
sarvamavaruddhya
sarvamavaruddhya sarvamavaruddhya
tadevanupravishate
tadevanupravishate tadevanupravishate
tadevanupravishate
tadevanupravishate tadevanupravishate
yaevam veda
yaevam veda yaevam veda.
Now we'll chant this paragraph, but we'll repeat each sentence twice.
Vidhaya lokan vidhaya bhutani vidhaya lokan vidhaya bhutani vidhaya sarva pradisho dishascha vidhaya sarva pradisho dishascha prajapatih prathamajarutasya prajapatih prathamajarutasya atmanatmanamabhisamviveshete atmanatmanamabhisamviveshete sarvamevedamaptva sarvamevedamaptva sarvamavaruddhya sarvamavaruddhya tadevanupravishate tadevanupravishate yaevam veda
yaevam
veda
chatushtaiha apo grinhate
chatushtaiha apo grinhate chatushtaiha apo grinhate
chatvariva
chatvariva chatvariva
apagum rupani
apagum rupani apagum rupani
apagum rupani
apagum rupani apagum rupani
chatvariva apagum rupani
chatvariva apagum rupani chatvariva apagum rupani
megho vidyut
megho vidyut megho vidyut
snana itnu vrishnihi
snana itnu vrishnihi स्तनयित्नुर्वृष्टिः तान्येवावरुन्धे आतपति वर्ष्या गृह्णाति
तापुरस्तादुपदधाति एतावै ब्रह्मवर्चस्य आपः ब्रह्मवर्चसमवरुन्धे ब्रह्मवर्चसमवरुन्धे
तस्मान्मुखतो ब्रह्मवर्चसितरः
We'll chant this paragraph now. We'll repeat each sentence twice.
चतुष्टय आपो गृह्णाति चत्वारिवा अपागुं रूपाणि मेघो विद्युत् स्तनयित्नुर्वृष्टिः तान्येवावरुन्धे आतपति वर्ष्या गृह्णाति तापुरस्तादुपदधाति एतावै ब्रह्मवर्चस्य आपः मुखत एव ब्रह्मवर्चसमवरुन्धे तस्मान्मुखतो ब्रह्मवर्चसितरः
कोऽप्यागृह्णाति
तादक्षिणत उपदधाति एतावै तेजस्वी नीरापः एतावै तेजस्वी नीरापः
तेज एवास्य
दक्षिणतो दधाति
तेज एवास्य दक्षिणतो दधाति
Tasmaddakshinordha Tejasvitaraha
Tasmaddakshinordhastejasvitaraha
Stavara grinhate
Tapaschadupadarhate
Pratishthitavaistha varaha Paschadeva pratitishthate
Vahanter grinhate We'll chant each sentence twice now of this paragraph.
Kopya grinhate Tadakshinata upadadhate Etavaite jasvi nirapaha Teja evasya dakshinato dadhate Tasmaddakshinordhastejasvitaraha Stavara grinhate Tapaschadupadadhate Pratishthitavaistha varaha Paschadeva pratitishthate Vahanter grinhate
So that is the end of 100th paragraph. Now we'll just revise starting from the 97th paragraph. However, we'll repeat each sentence twice from here. That is starting from Apoha yad brahatir garbhamayan. From there we'll start repeating each sentence twice.
Apohayat brahatir garbhamayanna Dakshandadhana janayante swayambhum Tata imejya srijyanta sargaha Adhyova idagum samabhut Tasmadidagum sarvam brahma swayamvite Tasmadidagum sarvagum shithilameva dhruvameva bhavat Prajapatirvavatat Atmanatmanam vidhaya Tadevanupravishat Tadeshabhyano okta Vidhaya lokan, vidhaya bhutani Vidhaya sarva pradishodishascha Prajapati prathamajarutasya prajapati prathamajarutasya atmanatmanam abhisambiveshete sarvamevedamaptva sarvamavarudhya tadevanupravishate ya evam veda chatushthaya apo grinhate chatvariva apagum rupani megho vidyut sthanayatnarvishtih tanyeva varundhe atapati varshya grinhate ta purastadupadadhate eta vai brahmavarchasya apaha mukhata eva brahmavarchasamavarundhe tasmān mukhato brahmavarchasitarah kopya grinhate tadakshinata upadadhate eta vai tejasvi nirapah teja evasya dakshinato dadhate tasmā dakṣinārdhasteja svitarah sthāvarā grinhāte tāpaschādupadadhāte pratiṣṭhitāvai sthāvarāḥ pascha deva pratitishthate vahantir grinhate
om
shanti shanti shantihi bhadram karne vishrunuyama devah bhadram pashye makshabhiryajatrah Thirairangaistusthuvagum sastanubhihi Vyashema devahitayyadayuhu Swastina indro vriddhashravah Swastina pusha vishvavedah Swastina starksho arishtanimihi Swastino brihaspadirdadhatu Om Shanti 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 Yadakshara Parabrahmam Matrahinam Tu Yad Bhavet Tat Sarvam Kshamyatam Deva Narayane Namostute Visarga Bindu Matrani Padapadaksharani Cha Nyunani Chati Riktani Kshamasvasayishvara Aparadha Sahasrani Kriyante Harnishanmaya Dasoyam hiti mām martvā kshamasvasā īśvara Anyathā sharanam nāsti tvameva sharanam mamā Tasmāt kārunya bhāvena raksha rakshasā īśvara Harihi om tat sat sri sā īśvara arpaṇamastu
With this we come to an end to this week's Radio Sai Vedam Tutor and in the next week's class we shall continue with the Aruna Prashna. It's now time for us to move ahead with the next segment of the Thursday Life for Today. And it'll be the Bhajan Tutor by Brother Bishu. And without any further delay, over to Brother Bishu for the Bhajan Tutor. Sai Ram and happy listening.